एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः मार्गशीर्षमासस्य चतुर्थे दिवसे सम्पत्स्यमानाय निर्वाचनाय सत्ता गठबन्धनस्य मध्ये स्थानानाम् आवंटनार्थं संघटितेन कार्यदलेन निर्मितं स्वरूपं शीर्षनेतृभ्यो ज्ञापितं वर्तते। शीर्षनेतृत्वेन अतिरिक्तम् अधीत्य स्थानानाम् आवंटनं निर्णेष्यते इति कार्यदलस्य सचिवालय सचिवः केशवराज जोशी अज्ञापयत। प्रतिवेदनं निर्णेतुम् उपवेशः अद्य पुनर्वसति। प्रधानमन्त्री शेरबहादुर वदति साक्षर नेपालाभियानं प्रभावकारितया संचाल्य राष्ट्रस्य सर्वेषां जनपदानां यथासम्भवं शीघ्रं साक्षर घोषणार्थं सर्वेषां सहकार्यं समन्वयात्मक प्रयासश्च आवश्यकौ स्तः। षड्पञ्चाशत्तमस्य अन्तर्राष्ट्रिय साक्षरता दिवसस्य अवसरे ह्य शुभकामनां प्रददत् प्रधानमन्त्री देउवा अवासत सर्वकारेण शिक्षायाः गुणस्तरे सुधारमानीय आधारभूतस्तरात् उच्चशिक्षां यावत् सर्वेषां नागरिकाणां सहजम् उपागमनं सुनिश्चेतुं विभिन्नाः कार्यक्रमाः क्रियान्वीयमानाः सन्ति। शिक्षा विज्ञान प्रविधि मन्त्री देवेन्द्र पौडेलः शिक्षा नागरिकाणां मौलिकाधिकारस्य रूपेण प्रत्यानुभाविता स्थिति हेतोः स्थानीय प्रादेशिक संज्ञानां त्रयाणमेव स्तराणां सर्वकाराणां मध्ये समन्वयात्मकरीत्या साक्षराभियानम् अग्रे वर्धयितुं बलं प्रादात्। प्रथम प्रदेशः यः साक्षर प्रदेशः उद्घुष्टो वर्तते। प्रदेशस्य सभामुखः प्रदीप कुमार भण्डारी सामाजिक विकास मन्त्रालयेन ह्यो मोरङ जनपदे आयोजिते कार्यक्रमे साक्षर प्रदेशम् उद्घोषयत। युनेस्को संगठनेन निर्धारितान् द्वादश मापदण्डान् आधृत्य प्रदेशोऽसौ साक्षरः उद्घुष्टो वर्तते। आगामिनो मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां निर्वाचनस्य कृते ह्य निर्वाचनायोगेन प्रत्यक्ष निर्वाचन प्रणाल्याः पक्षस्य निर्वाचन कार्यक्रमः स्वीकृतोऽस्ति। स्वीकृत कार्यक्रमस्य अनुसारेण आश्विनस्य त्रयोविंशे दिवसे प्रत्याशिनां मनोनयन पत्रस्य पञ्जीकरणं पञ्जीकारित मनोनयन पत्राणां प्रत्याशिनां सूच्याः प्रकाशनं च विधास्यते। आश्विनस्य चतुर्विंशे दिवसे प्रत्याशिनां विरूद्धे निवेदनस्य दानाय समयः निर्धारितोऽस्ति। आश्विनस्य चतुर्विंशात् दिवसात् पञ्चविंशं दिवसं यावत् मनोनयन पत्रस्य अनुसन्धानं विधाय आश्विनस्य पञ्चविंशे दिवसे एव प्रत्याशिनां नामावल्याः प्रकाशनं विधास्यते। आश्विनस्य षड्विंशे दिवसे प्रत्याशिनां कृते नाम्नां प्रत्यावर्तनाय समयं प्रदाय प्रत्याशिनाम् अन्तिम नामावल्याः प्रकाशनं प्रत्याशिभ्यो निर्वाचन चिह्नानि च प्रदास्यन्ते इति निर्वाचनायोगेन ज्ञापितं वर्तते। वर्षाणां सहकालस्य च देवतायाः देवराज इन्द्रस्य पूजाराधने विधाय अद्य परम्परागतम् इन्द्रयात्रा पर्व समायोज्यमानं वर्तते। प्रतिवर्षं भाद्रशुक्ल चतुर्दश्यां पर्वेदं काष्ठमण्डप ललितपुर धुलीखेल दोलखा प्रवृत्ति स्थाने सुसमायोज्यते। भाद्रशुक्ल द्वादश्यां हनुमद्वारस्य पुरतो धार्मिक विधि पूर्वकम् इन्द्रध्वजसहितस्य काष्ठस्तम्भस्य उन्नयनम् अनु प्रारब्धा यात्रेयं विविधानि नृत्यगीतानि रथयात्रां देवी देवतानां पूजार्चने च सम्पाद्य अष्टदिनावधि समायोज्यते। राष्ट्रपतिना विद्यादेवी भण्डारिणा कुमारी पूजनस्य इन्द्रयात्रायाश्च पर्वण अवसरे शुभकामना सन्देशं प्रदाय शताब्दीभिः प्रचलने विद्यमानैः एतादृशैः मौलिक पर्वभिः प्राचीन सभ्यतां संस्कृतिं च संरक्षितुम् अतिरिक्तं साहाय्यं मिलतीति विश्वासः व्यक्तो वर्तते। प्रधानमन्त्री शेरबहादुर स्वस्य शुभकामना सन्देशे सहकालस्य देवताम् इन्द्रं प्रति कार्तज्ञं प्रकटय्य समायोज्यमानं पर्वेदं प्रकृति मानवयोर्मध्ये विद्यमानस्य अन्योन्याश्रित सम्बन्धस्य प्रतिबिम्बनं करोतीति उल्लिखति। प्रधानमन्त्रिणा देवाभिधेन सन्देशे काष्ठमण्डपोपत्यकायां पार्श्वर्ति क्षेत्रेष् च समायोज्यमानैः कुमारी पूजनेन्द्रयात्रा प्रवृत्ति पर्वभिः विविधानां जाति भाषाभाषी संस्कृतीनां भौगोलिक क्षेत्राणां च नेपालीनां मध्ये पारस्परिक सद्भाव सहिष्णुते प्रगाढीकृत्य राष्ट्रियैकता अतिरिक्तं सुदृढीक्रियते इत्युल्लिखितं वर्तते। अनन्त चतुर्दश्याः तिथौ अद्यैव अनन्तनाथस्य भगवतः विष्णोः पूजाराधने च विधीयते। नेपालस्य राजनीतौ साहित्य च महत्वपूर्णं योगदानं ददतः प्रथम जननिर्वाचित प्रधानमन्त्रिणः बीपी कोइरालाविदस्य नवोत्तर जन्म जयन्ती अद्य विभिन्नैः कार्यक्रमैः सह आराष्टं समायोज्यमाना वर्तते। पूर्व राष्ट्रपति डाक्टर रामवरण यादव वदति विश्वेश्वर प्रसाद कोइराला इत्यस्मिन् राष्ट्रस्य प्रजातन्त्रस्य समाजस्य च चिन्ता अवर्तत। जननायकस्य बीपी कोइराला भिदस्य नवोत्तर शततम्य जन्म जयन्त्या अवसरे बीपी कोइराला स्मृति कोषेन ह्य आयोजिते बीपी साहित्य सम्मान बीपी सेनानी सम्मान कृति लोकार्पण कार्यक्रमे असौ अवोचत बीपी कोइराला भिदेन समाज सम्यक बुद्ध आसीत। राष्ट्रपतिना विद्यादेवी भण्डारेण म्यान्मार देशस्य राजदूत परे राजदूत पदे हरिश्चन्द्र घिमिरे मलेसिया देशस्य कृते नेपालस्य आवासीय राजदूत पदे दिल्लीराज पौडेलश्च नियुक्तौ स्तः। नेपालस्य संविधानस्य अनुसारेण मन्त्री परिषदः परामर्शेन एतौ नियुक्तौ इति राष्ट्रपतेः कार्यालयस्य प्रवक्त्रा सागर आचार्येण ह्य प्रकाशितायं विज्ञप्तौ उल्लिखितं वर्तते। राष्ट्रपतिना भण्डारिणा ह्य एव संयुक्ताधिराज्यस्य बेलायत राष्ट्रस्य कृते नेपालस्य आवासीय राजदूत दूतः ज्ञानचन्द्र आचार्यः माल्टा देशस्य कृतेऽपि संयुक्त राज्य अमेरिका देशस्य कृते नेपालस्य आवासीय राजदूतः प्राध्यापक श्रीधर खत्री कोष्टारिका देशस्य कृते च आवासीयतर नेपाली राजदूत पदे नियुक्तौ स्तः। बेलायत देशस्य महाराज्ञी एलिजाबेथ द्वितीय 97 वर्षाणां वयसी ह्यो दिवंगता वर्तते। बेलायत देशे सर्वाधिक समय राजासने आरूढा महाराज्ञी एलिजाबेथ स्कटल्याण्ड स्थिते निवासे दिवंगता वर्तते। तस्या निधनानन्तरं तस्या ज्येष्ठ पुत्रः चार्ल्स राजासने आरूढो वर्तते। नेपाली कांग्रेस दलस्य नेता शेखर कोइराला कथयति संचार स्वतन्त्रता विना लोकतन्त्रस्य सुदृढीकरणं न सम्भवति। नेपाल प्रेस युनियन संघस्य केन्द्रीय समित्या नवाधिक शततम्या बीपी जयन्त्या अवसरे ह्य जनकपुर धाम्नि आयोजितायं बीपी इत्यस्य विचार संचाराभिव्यक्ति स्वतन्त्रता अधुनातन वयश्चेति विषयिण्यां विचारगोष्ठ्यां नेता कोइराला अभाषत संचाराभिव्यक्तेः स्वतन्त्रतां विना लोकतन्त्रेण उचित दिशा ग्रहीतुं न शक्यते। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड भाषते जनयुद्धस्य समयात् विभिन्न कालखण्डेषु मारितानां व्यक्तिनां राष्ट्रिय हुतात्म घोषणाया संघर्ष इदानीमपि सञ्चलति। हुतात्मनो सुरेश वाग्ले इत्यस्य भीमसेन पोखरेलस्य च स्मृति दिवसस्य स्मृतिग्रन्थ सार्वजनिकरणस्य च कार्यक्रमे ह्य अध्यक्षो दाहाल विभिन्न राजनीतिकानाम् आरोहावरोहाणाम् कारणेन विभिन्न परिवेशेषु मृतानाम् हुतात्मनाम् विलोपितानाम् च व्यक्तिनाम् राष्ट्रिय हुतात्म घोषणा आवश्यकी अस्तीति धारणाम् व्यक्तवान्। ऊर्जो जलस्रोत सिंचन मन्त्री पम्फा भूषाल कथयति राज्यस्य निवेशनयुतैः संचार माध्यमैः सक्षमैः प्रतिस्पर्धिभिः अग्रणीभिश्च भाव्यम्। सिम्बप्रासादे ह्य आयोजिते नेपाल राष्ट्रिय कर्मचारी संगठनस्य रेडियो नेपाल शाखायाः तृतीय महाधिवेशनस्य उद्घाटन समारोहे मन्त्री भूषालः अगदत् रेडियो नेपालः समुचित सूचनायाः सम्प्रेषकः राष्ट्रस्य संचार माध्यमः सम्पादनीयः।